ಓಂ ಅಥ ಸಪ್ತದಶೋಧ್ಯಾಯ ಪ್ರಣವ ಪಂಚಾಕ್ಷರ ಮಂತ್ರ ಮಾಹಾತ್ಮ್ಯಂ ಋಷಯ ಊಚು ಪ್ರಣವಸ್ಯ ಚ ಮಾಹಾತ್ಮ್ಯಂ ಷಡ್ಲಿಂಗಸ್ಯ ಮಹಾಮುನೇ ಶಿವಭಕ್ತಸ್ಯ ಪೂಜಾಂ ಚ ಕ್ರಮಶೋ ಬ್ರೂಹಿ ನಃ ಪ್ರಭೋ. ಸೂತ ಉವಾಚ ತಪೋಧನೈರ್ಭವದ್ಭಿಶ್ಚ ಸಮ್ಯಕ್ ಪ್ರಶ್ನಸ್ತ್ವಯಂ ಕೃತಃ ಅಸ್ಯೋತ್ತರಂ ಮಹಾದೇವೋ ಜಾನಾತಿ ಸ್ಮ ನ ಚಾಪರಃ. ಅಥಾಪಿ ವಕ್ಷ್ಯೇತಮಹಂ ಶಿವಸ್ಯ ಕೃಪಯೈವ ಹಿ ಶಿವೋಸ್ಮಾಕಂ ಚ ಯುಷ್ಮಾಕಂ ರಕ್ಷಾಂ ಗೃಹ್ಣಾತ ಭೂರಿಜಃ. ಪ್ರೋಹಿ ಪ್ರಕೃತಿ ಜಾತಸ್ಯ ಸಂಸಾರಸ್ಯ ಮಹೋದಧೇಃ ನವಂ ನಾವಾನ್ವರಮಿತಿ ಪ್ರಣವಂ ವೈ ವಿದುರ್ಬುಧಾಃ. ಪ್ರಪಂಚೋ ನ ನಾಸ್ತಿ ವೋ ಯುಷ್ಮಾಕಂ ಪ್ರಣವಂ ವಿದುಃ ಪ್ರಕರ್ಷೇನ ನ ಯೇದ್ಯಸ್ಮಾನ್ ಮೋಕ್ಷಂ ವಃ ಪ್ರಣವಂ ವಿದುಃ. ಪ್ರಜಾಪಕಾನಾಂ ಯೋಗಿನಾಂ ಸ್ವಮಂತ್ರಪೂಜಕಸ್ಯ ಚ ಸರ್ವಕರ್ಮಕ್ಷಯಂ ಕೃತ್ವಾ ದಿವ್ಯಜ್ಞಾನಂ ತು ನೂತನಂ ತಮೇವ ಮಾಯಾರಹಿತಂ ನೂತನಂ ಪರಿಚಕ್ಷತೆ ಪ್ರಕರ್ಷೇಣ ಮಹಾತ್ಮಾನಂ ನವಂ ಶುದ್ಧಸ್ವರೂಪಕಂ ನೂತನಂ ವೈ ಕರೋತೀತಿ ಪ್ರಣವಂ ತಂ ವಿದುರ್ಬುಧಾಃ. ಪ್ರಣವಂ ದ್ವಿವಿಧಂ ಪ್ರೋಕ್ತಂ ಸೂಕ್ಷ್ಮಸ್ಥೂಲವಿಭೇದದಃ ಸೂಕ್ಷ್ಮಂ ಏಕಾಕ್ಷರಂ ವಿದ್ಯಾ ಸ್ಥೂಲಂ ಪಂಚಾಕ್ಷರಂ ವಿದುಃ ಸೂಕ್ಷ್ಮಂ ಅವ್ಯಕ್ತ ಪಂಚಾರ್ಣಂ ಸುವ್ಯಕ್ತಾರ್ಣಂ ತಥೇತರಂ. ಜೀವನ್ಮುಕ್ತಸ್ಯ ಸೂಕ್ಷ್ಮಂ ಹಿ ಸರ್ವಸಾರಂ ಹಿ ತಸ್ಯ ಹಿ ಮಂತ್ರೇನಾರ್ಥಾನುಸಂಧಾನಂ ಸ್ವದೇಹ ವಿಲಯಾವಧಿ ಸ್ವದೇಹೇ ಗಲಿತೆ ಪೂರ್ಣಂ ಶಿವಂ ಪ್ರಾಪ್ನೋತಿ ನಿಶ್ಚಯಃ. ಕೇವಲಂ ಮಂತ್ರಜಾಪೀತು ಯೋಗಂ ಪ್ರಾಪ್ನೋತಿ ನಿಶ್ಚಯಃ. ಶತ್ರಿಂಶತ್ ಕೋಟಿ ಜಾಪೀತು ನಿಶ್ಚಯಂ ಯೋಗಮಾಪ್ನುಯಾತ್. ಸೂಕ್ಷ್ಮಂ ಚ ದ್ವಿವಿಧಂ ಜ್ಞೇಯಂ ಹ್ರಸ್ವದೀರ್ಘ ವಿಭೇದತಃ. ಅಕಾರಶ್ಚ ಉಕಾರಶ್ಚ ಮಕಾರಶ್ಚ ತತಃ ಪರಂ ಬಿಂದುನಾದಯುತಂ ತದ್ಧಿ ಶಬ್ದಕಾಲಕಲಾನ್ವಿತಂ. ದೀರ್ಘ ಪ್ರಣವಮೇವಂ ಹಿ ಯೋಗಿನಾಂ ಏವ ಹೃದ್ಗತಂ ಮಕಾರಂ ತಂತ್ರಿತತ್ವಂ ಹಿ ಹ್ರಸ್ವ ಪ್ರಣವ ಉಚ್ಯತೆ. ಶಿವಶಕ್ತಿಸ್ತಯೋರೈಕ್ಯಂ ಮಕಾರಂ ತು ತ್ರಿಕಾತ್ಮಕಂ. ಹ್ರಸ್ವಂ ಮೇವ ಹಿ ಜಾಪ್ಯಂ ಸ್ಯಾತ್ ಸರ್ವಪಾಪಕ್ಷಯೈಶಿನಾಂ. ಭೂವಾಯು ಕನಕಾರ್ಣೌದ್ಯೋಹು ಶಬ್ದಾದ್ಯಾ ಚ ತಥಾ ದಶ ಆಶಾನ್ವಯೇ ದಶ ಪುನಃ ಪ್ರವೃತ್ತ ಇತಿ ಕಥ್ಯತೆ. ಹ್ರಸ್ವಮೇವ ಪ್ರವೃತ್ತಾನಾಂ ನಿವೃತ್ತಾನಾಂ ತು ದೀರ್ಘಕಂ. ವ್ಯಾಹೃತ್ಯಾದೌ ಚ ಮಂತ್ರಾದೌ ಕಾಮಂ ಶಬ್ದಕಲಾಯುತಂ ವೇದಾದೌ ಚ ಪ್ರಯೋಜ್ಯಂ ಸ್ಯಾತ್ ಬಂಧನೆ ಸಂಧ್ಯಯೋರಪಿ. ನವಕೋಟಿ ಚ ಪಾಂಜಪ್ತ್ವಾ ಸಂಶುದ್ಧ ಪುರುಷೋ ಭವೇತ್. ಪುನಶ್ಚ ನವಕೋಟ್ಯಾತು ಪೃಥಿವೀ ಜಯಮಾಪ್ನುಯಾತ್. ಪುನಶ್ಚ ನವಕೋಟ್ಯಾತು ಜಪಾಂ ಜಯಮವಾಪ್ನುಯಾತ್. ಪುನಶ್ಚ ನವಕೋಟ್ಯಾತು ತೇಜಸಾಂ ಜಯಮಾಪ್ನುಯಾತ್. ಪುನಶ್ಚ ನವಕೋಟ್ಯಾತು ವಾಯೋರ್ಜಯಮವಾಪ್ನುಯಾತ್. ಆಕಾಶ ಜಯಮಾಪ್ನೋತಿ ನವಕೋಟಿ ಜಪೇನ ವೈ ಗಂಧಾದೀನಾಂ ಕ್ರಮೇಣೈವ ನವಕೋಟಿ ಜಪೇನ ವೈ. ಅಹಂಕಾರಸ್ಯ ಚ ಪುನರ್ ನವಕೋಟಿ ಜಪೇನ ವೈ ಸಹಸ್ರಮಂತ್ರ ಜಪ್ತೇನ ನಿತ್ಯಶುದ್ಧೋ ಭವೇತ್ ಪುಮಾನ್. ತತಃ ಪರಂ ಸುಸಿದ್ಧ್ಯರ್ಥಂ ಜಪೋ ಭವತಿ ಹಿ ದ್ವಿಜಾಃ. ಏವಮಷ್ಟೋದರ್ಶತ ಕೋಟಿ ಜಪ್ತೇನ ವೈ ಪುನಃ ಪ್ರಣವೇನ ಪ್ರಬುದ್ಧಸ್ತು ಶುದ್ಧಯೋಗಮವಾಪ್ನುಯಾತ್. ಶುದ್ಧಯೋಗೇನ ಸಂಯುಕ್ತೋ ಜೀವನ್ಮುಕ್ತೋ ನ ಸಂಶಯಃ. ಸದಾ ಜಪನ್ ಸದಾ ಧ್ಯಾಯನ್ ಶಿವಂ ಪ್ರಣವರೂಪಿನಂ ಸಮಾಧಿಸ್ಥೋ ಮಹಾಯೋಗಿ ಶಿವ ಏವ ನ ಸಂಶಯಃ. ಋಷಿಛಂದೋ ದೇವದಾದೀನ್ಯಸ್ಯ ದೇಹೇ ಪುನರ್ಜಪೇತ್. ಪ್ರಣವಂ ಮಾತೃಕಾಯುಕ್ತಂ ದೇಹೇನ್ಯಸ್ಯ ಋಷಿರ್ಭವೇತ್. ದಶಮಾತೃಷಡಧ್ವಾದೀ ಸರ್ವಂ ನ್ಯಾಸಫಲಂ ಲಭೇತ್. ಪ್ರವೃತ್ತಾನಾಂ ಚ ಮಿಶ್ರಾನಾಂ ಸ್ಥೂಲ ಪ್ರಣವಮಿಷ್ಯತೆ. ಕ್ರಿಯಾತಪೋಜಪೈರ್ಯುಕ್ತಾ ತ್ರಿವಿಧಾಃ ಶಿವಯೋಗಿನಃ. ಧನಾದಿ ವಿಭವೈಶ್ಚೈವ ಕರಾವ್ಯಂಗೈರ್ನಮಾಭಿಃ. ಕ್ರಿಯಯಾ ಪೂಜಯಾ ಯುಕ್ತಃ ಕ್ರಿಯಾಯೋಗೀತಿ ಕಥ್ಯತೆ. ಪೂಜಾಯುಕ್ತಶ್ಚ ಮಿತಭುಕ್ ಬಾಹ್ಯೇಂದ್ರಿಯಜಯಾನ್ವಿತಃ ಪರದ್ರೋಹಾದಿರಹಿತಸ್ತಪೋ ಯೋಗೀತಿ ಕಥ್ಯತೆ. ಏತೈರ್ಯುಕ್ತಃ ಸದಾ ಶುದ್ಧಃ ಸರ್ವಕಾಮಾದಿವರ್ಜಿತಃ ಸದಾ ಜಪಪರಶಾಂತೋ ಜಪಯೋಗೀತಿ ತಂ ವಿದುಃ. ಉಪಚಾರೇ ಷೋಡಶಭಿಃ ಪೂಜಯಾ ಶಿವಯೋಗಿನಾಂ ಸಾಲೋಕ್ಯಾದಿಕ್ರಮೇಣೈವ ಶುದ್ಧೋ ಮುಕ್ತಿಂ ಲಭೇ ನರಃ. ಜಪಯೋಗಮಥೋ ವಕ್ಷ್ಯೇ ಗದದ ಶೃಣುತ ದ್ವಿಜಾಃ. ತಪಃಕರ್ತುರ್ಜಪಃ ಪ್ರೋಕ್ತೋ ಯಜ್ಜಪನ್ ಪರಿಮಾರ್ಜ್ಯತೆ. ಶಿವನಾಮ ನಮಃ ಪೂರ್ವಂ ಚತುರ್ಥ್ಯಾಂ ಪಂಚತತ್ವಕಂ ಸ್ಥೂಲಪ್ರಣವರೂಪಂ ಹಿ ಶಿವ ಪಂಚಾಕ್ಷರಂ ದ್ವಿಜಾಃ. ಪಂಚಾಕ್ಷರಜಪೇನೈವ ಸರ್ವಸಿದ್ಧಿಂ ಲಭೇ ನರಃ. ಪ್ರಣವೇನಾದಿ ಸಂಯುಕ್ತಂ ಸದಾ ಪಂಚಾಕ್ಷರಂ ಜಪೇತ್. ಗುರುಪದೇಶಂ ಸಂಗಮ್ಯ ಸುಖವಾಸೇಸು ಭೂತಲೆ ಪೂರ್ವಪಕ್ಷೇ ಸಮಾರಭ್ಯ ಕೃಷ್ಣಭೂತಾವಧಿ ದ್ವಿಜಾಃ. ಮಾಘಂ ಭಾದ್ರಂ ವಿಶಿಷ್ಟಂ ತು ಸರ್ವಕಾಲೋತ್ತಮೋತ್ತಮಂ ಏಕವಾರಂ ಮಿತಾಶೀತು ವಾಗ್ಯತೋ ನಿರ್ಯತೇಂದ್ರಿಯಃ. ಸ್ವಸ್ಯ ರಾಜಪಿತೃನಾಂ ಚ ಶುಶ್ರೂಷಣಂ ಚ ನಿತ್ಯಶಃ. ಸಹಸ್ರಜಪ ಮಾತ್ರೇನ ಭವೇತ್ ಶುದ್ಧೋನ್ಯಥಾರುಣೀ. ಪಂಚಾಕ್ಷರಂ ಪಂಚಲಕ್ಷಂ ಜಪೇ ಶಿವಮನುಸ್ಮರನ್. ಪದ್ಮಾಸನಸ್ಥಂ ಶಿವದಂ ಗಂಗಾಚಂದ್ರಕಲಾನ್ವಿತಂ ವಾಮೋರುತ್ಥಿತ ಶಕ್ತ್ಯಾ ಚ विराजन्तं महागणैः मृगटङ्कधरं देवं वरदाभयपाणिकं सदानुग्रहकर्तारं सदाशिवमनुस्मरन् सम्पूज्य मनसा पूर्वं हृदि वा सूर्यमण्डले जपेत् पञ्चाक्षरीं विद्यां प्राङ्मुखशुद्धकर्मकृत् प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्य च मनोरमेषु चौदेशे नियतः शुद्धमानदः पञ्चाक्षरस्य मन्त्रस्य सहस्रं द्वादशं जपेत् वरये च स पत्नीकान् शैवान् वै ब्राह्मणोत्तमान् एकं गुरुवरं शिष्टं वरयेत् साम्बमूर्तिकम् ईशानं चाधपुरुषम् अघोरं वाममेव च सद्यो जातं च पञ्चैव शिवभक्तान् द्विजोत्तमान् पूजाद्रव्याणि सम्पाद्य शिवपूजां समारभेत् शिवपूजां च विधिवत् कृत्वा होमं समारभेत् मुखान्तं च सुसूत्रेण कृत्वा होमं समाचरेत् दशैकं वा शतैकं वा सहस्रैकमथापि वा कापिलेन घृतेनैव जुहुयात् स्वयमेव हि कारये शिवभक्तैर्वाप्यष्टोत्तरशतं बुधः होमान्ते दक्षिणादेया गुरोर्गोमिथुनं तथा ईशानादिस्वरूपांस्तान् गुरुं साम्बं विभाव्य च तेषां तत्सिक्तितो येन स्वशिरः स्नानमाचरेत् शत्रिंशत्कोटितीर्थेषु सद्य स्नानफलं लभेत् दशाङ्गमन्नं तेषां वै दद्याद्वै भक्तिपूर्वकं पराबुद्ध्या गुरोः पत्नीम् ईशानादिक्रमेण तु परमान्नेन सम्पूज्य यथा विभवविस्तरं रुद्राक्षवस्त्रपूर्वं च वटकापूपकैर्युतं बलिदानं दधकृत्वा भूरी भोजनमाचरेत् ततः सम्प्राति देवेशं जपं तावत् समापयेत् पुरश्चरणमेवं तु कृत्वा मन्त्री भवेन्नरः पुनश्च पञ्चलक्षेण सर्वपापक्षयो भवेत् अतलादिसमारभ्य सत्यलोकावधिक्रमात् पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् मध्ये मृतश्चेद्भोगान्ते भूमौ तज्जापको भवेत् पुनश्च पञ्चलक्षेण ब्रह्मसामीप्यमाप्नुयात् पुनश्च पञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् आहत्य शतलक्षेण साक्षात् ब्रह्मसमो भवेत् कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै यथेष्टं भोगमाप्नोति तद्ब्रह्म प्रलयावधि पुनः कल्पान्तरे वृत्ते ब्रह्मपुत्रस्य जायते पुनश्च तपसादीप्तक्रमान्मुक्तो भविष्यति पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् पातालादि च सत्यान्तं ब्रह्मलोका चतुर्दश सत्यादूर्ध्वं क्षमान्तं वै विष्णुलोका चतुर्दश क्षमालोके कार्यविष्णुर्वैकुण्ठे वरपत्तने कार्यलक्ष्म्या महाभोगी रक्षां कृत्वा अभितिष्ठति तदूर्ध्वगा च शून्यन्तां लोकाष्टाविंशतिस्थिताः शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः षडुत्तरा च पञ्चाशत् अहिंसां ता सुदुर्धकाः अहिंसालोकमास्ताय ज्ञानकैलासके पुरे कार्यश्वरस्तिमिरोभावं सर्वान् कृत्वाभितिष्ठति तदन्ते कालचक्रं हि कालातीतस्ततः परं शिवेनाभिष्टितस्तत्र कालश्चक्रेश्वराह्वयः माहिषद्धर्ममास्ताय सर्वान् कालेन युज्यति असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा असत्यादि चतुष्पादः सर्वांशः कामरूपधृक् नास्तिक्यलक्ष्मीर्दुःसङ्गो वेदबाह्यध्वनिः सदा क्रोधसङ्घकृष्णवर्णो महामहिषवेशवान् तावान्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि तदर्वाकर्मभोगो हि तदूर्ध्वं ज्ञानभोगकं तदर्वाकर्ममाया हि ज्ञानमाया तदूर्ध्वकं मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते मा लक्ष्मीर्ज्ञानभोगी वै याति मायेति कथ्यते तदूर्ध्वं नित्यभोगो हि तदर्वाङ्नश्वरं विदुः तदर्वाक्च तिरोधानं तदूर्ध्वं न हि बन्धनं तदर्वाक्पाशबन्धो हि तदूर्ध्वं न हि बन्धनं तदर्वाक्परिवर्तन्ते काम्यकर्मानुसारिणः निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः तदर्वाक्परिवर्तन्ते बिन्दुपूजापरायणाः तदूर्ध्वं हि व्रजन्त्येव निष्कामालिङ्गपूजकाः तदर्वाक्परिवर्तन्ते शिवान्यसुरपूजकाः शिवैकनिरता ये च तदूर्ध्वं सम्प्रयान्ति ते तदर्वाग्जीवकोटि स्यात् तदूर्ध्वं परकोटिका सांसारिका तदर्वाक्च मुक्ता खलु तदूर्ध्वकाः तदर्वाक्परिवर्तन्ते प्राकृतद्रव्यपूजकाः तदूर्ध्वं हि व्रजन्त्येते पौरुषद्रव्यपूजकाः तदर्वाक्शक्तिलिङ्गं तु शिवलिङ्गं तदूर्ध्वकं तदर्वाग् आवृतं लिङ्गं तदूर्ध्वं हि निरावृतिं तदर्वाकल्पितं लिङ्गं तदूर्ध्वं वै न कल्पितं तदर्वाग् बाह्यलिङ्गं स्यात् अथरङ्गम् चतुर्धकम् तदर्वाक्षक्तिलोका हि शतम् वै द्वादशाधिकम् तदर्वाग्बिन्दुरूपम् हि नादरूपम् तदुत्तरम् तदर्वा कर्मलोकस्तु तदूर्ध्वम् ज्ञानलोककः नमस्कारस्तदूर्ध्वम् हि मदाहम् कारणाचरः जनिजम् वैति रोधानम् नानिषध्यायते इति ज्ञानशब्दात् एवम् हि तिरोधाननिवारणात् तदर्वाक् परिवर्तन्ते ह्यादिभौतिकपूजकाः आध्यात्मिकार्चका एव तदूर्ध्वम् सम्प्रयान्ति वै तावद्वै वेदिभागम् तन्महालोकात्मलिङ्गके प्रकृत्या ज्येष्ठबन्धोऽपि वेद्यन्ते सम्प्रतिष्ठितः एवमेतादृशम् ज्ञेयम् सर्वम् लौकिकवैदिकम् अधर्ममहिषारूढम् कालचक्रम् तरन्ति ते सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये तदूर्ध्वम् ऋषभो धर्मो ब्रह्मचर्यस्वरूपधृक् सत्यादिपादयुक्तस्तु शिवलोकाग्रदस्थितः क्षमाशृङ्गशमश्रोत्रो वेदध्वनिविभूषितः आस्तिक्यचक्षुर्निश्वास गुरुबुद्धिमनावृषः क्रियादिवृषभाज्ञेयाः कारणादिषु सर्वदा तम् क्रियावृषभम् धर्मम् कालातीतो अधितिष्ठति ब्रह्मविष्णुमहेशानाम् स्वस्वायुर्दिनमुच्यते तदूर्ध्वम् न दिनम् रात्र न जन्म मरणादिकम् पुनः कारणसत्यान्ता कारणब्रह्मणस्तथा गन्धाधिभ्यस्तु भूतेभ्यस्तदूर्ध्वम् निर्मिताः सदा सूक्ष्मगन्धस्वरूपा हि तिथालोका चतुर्दश पुनः कारणविष्णोर्वै तिथालोका चतुर्दश पुनः कारणरुद्रस्य लोकाष्टाविंशकामताः पुनश्च कारणेशस्य षट्पञ्चाशत्तदूर्ध्वकाः ततः परम् ब्रह्मचर्यलोकाख्यम् शिवसम्मतम् तत्रैव ज्ञानकैलासे पञ्चावरणसंयुते पञ्चमण्डलसंयुक्तम् पञ्चब्रह्मकलान्वितम् आदिशक्तिसमायुक्तम् आदिलिङ्गम् तु तत्र वै शिवालयमिदम् प्रोक्तम् शिवस्य परमात्मनः परःशक्त्या समायुक्तस्तत्रैव परमेश्वरः सृष्टिस्थितिश्च संहारस्थिरोभावो अप्यनुग्रहः पञ्चकृत्यप्रवीणोऽसौ सच्चिदानन्दविग्रहः ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः समाध्यासानम्यासीनः स्वात्मा रामो विराजते तस्य सन्दर्शनम् साध्यम् कर्मध्यानादिभिक्रमात् नित्यादिकर्मयजनात् शिवकर्ममतिर्भवेत् क्रियादिशिवकर्मभ्यः शिवज्ञानम् प्रसाधयेत् तद्दर्शनगताः सर्वे मुक्ता एव न संशयः मुक्तिरात्मस्वरूपेण स्वात्मा रामत्वमेव हि क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः शिवस्य दर्शनम् लब्ध्वा स्वात्मा रामत्वमेव हि यथा रविस्वकिरणाद् अशुद्धिम् अपनेष्यति कृता कृपा विचक्षणः शम्भुरज्ञानम् अपनेष्यति अज्ञानविनिवृत्तौ तु शिवज्ञानम् प्रवर्तत शिवज्ञानात् स्वस्वरूपम् आत्मा रामत्वमेष्यति आत्मा रामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् पुनश्च शतलक्षेण रुद्रस्य पदमाप्नुयात् पुनश्च शतलक्षेण ऐश्वर्यम् पदमाप्नुयात् पुनश्चैवम् विधेनैव जपेन सुसमाहितः शिवलोकादिभूतम् हि कालचक्रमवाप्नुयात् कालचक्रम् पञ्चचक्रम् एकैकेन क्रमोत्तरे दृष्टिमोहौ ब्रह्मचक्रम् भोगमोहौ तु वैष्णवम् कोपमोहौ रौद्रचक्रम् भ्रमणम् चैश्वरम् विदुः शिवचक्रम् ज्ञानमोहौ पञ्चचक्रम् विदुर्बुधाः पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् पुनश्च दशकोट्या हि तत्परदैश्वर्यमाप्नुयात् एवम् क्रमेण विश्वादेः पदम् लब्ध्वा महौजतः क्रमेण तत्पदैश्वर्यम् लब्ध्वा चैव महात्मनः शतकोटिमनुम् जप्त्वा पञ्चोत्तरमतन्द्रितः शिवलोकमवाप्नोति पञ्चम् आवरणाद्बहिः राजसम्मण्डपम् तत्र नदी संस्थानमुत्तमम् तपोरूप च वृषभस्तत्रैव परिदृश्यते सद्यो जातसि तत्स्थानम् पञ्चमावरणम् वरम् वामदेवसि च स्थानम् चतुर्थावरणम् पुनः अघोरनिलयम् पश्चात् तृतीयावरणम् परम् पुरुषस्यैव साम्बस्य द्वितीयावरणम् शुभम् ईशानस्य परस्यैव प्रथमावरणम् ददः ध्यानधर्मसि च स्थानम् पञ्चमम् मण्डपम् ददः बलिनाथस्य संस्थानम् तत्र पूर्णामृतप्रदम् चतुर्थम् मण्डपम् पश्चात् चन्द्रशेखरमूर्तिमत् सोमास्कन्दस्य च स्थानम् तृतीयम् मण्डपम् परम् द्वितीयम् मण्डपम् नृत्यमण्डपम् प्राहुरास्तिकाः प्रथमम् मूलमायायाः स्थानम् तत्रैव शोभनम् ततः परम् गर्भगृहम् लिङ्गस्थानम् परम् शुभम् नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् नन्दीश्वरो బహిస్తిష్టన్ పంచాక్షరముపాసతే ఏవం గురుక్రమాల్లబ్ధం నందీశాచ్చ మయా పునః తతఃపరం సంవేద్యం శివేనైవానుభావితం శివస్య కృపయా సాక్షాత్ శివలోకస్య వైభవం విజ్ఞాతుం శక్యతే సర్వైర్నాన్యథేత్యాహురాస్తికాః ఏవం క్రమేణ ముక్తాస్యుర్బ్రాహ్మణా వైజితేంద్రియాః అన్యేషాం చక్రమం వక్ష్యే గతతః శృణుతాదరాత్. గురూపదేశాజాప్యం వై బ్రాహ్మణానాం నమోంతికం పంచాక్షరం పంచలక్షం ఆయుష్యం ప్రజపేద్విధి స్త్రీత్వాపనయనార్థం తు పంచలక్షం జపేత్ పునః మంత్రేణ పురుషో భూత్వా క్రమాన్ముక్తో భవేద్బుధః. క్షత్రియ పంచలక్షేణ క్షత్రత్వం అపనేష్యతి పునశ్చ పంచలక్షేణ క్షత్రియో బ్రాహ్మణో భవేత్. మంత్రసిద్ధిర్జపాచైవ క్రమాన్ముక్తో భవేనరః. వైశ్యస్తు పంచలక్షేణ వైశ్యత్వం అపనేష్యతి పునశ్చ పంచలక్షేణ మంత్రక్షత్రియ ఉచ్యతే పునశ్చ పంచలక్షేణ క్షత్రత్వం అపనేష్యతి పునశ్చ పంచలక్షేణ మంత్రబ్రాహ్మణ ఉచ్యతే. శుభ్రశ్చైవ నమోంతేన పంచవింశతిలక్షదః మంత్రవిప్రత్వమాపద్య పశ్చాద్ శుద్ధో భవేద్విదః. నారీవాధనరో వాధ బ్రాహ్మణో వాణ్య ఏవ వా నమోంతం వా నమాపూర్వం ఆధురః సర్వదా జపేద్. తత్ర స్త్రీణాం తథైవోహ్య గురుర్ నిర్దర్శయేత్క్రమాత్. సాధక పంచలక్షాంతే శివప్రీత్యర్థమేవ హి మహాభిషేక నైవేద్యం కృత్వా భక్తాం చ పూజయేత్. పూజయా శివభక్తస్య శివప్రీతతరో భవేత్. శివస్య శివభక్తస్య భేదో నాస్తి శివో హి సః. శివ స్వరూపమంత్రస్య ధారణా శివ ఏవ హి. శివభక్త శరీరే హి శివే తత్పరమో భవేత్. శివభక్త క్రియా సర్వ వేద సర్వక్రియా విదుః. యావద్ తావత్ శివమంత్రం ఏన జప్తం భవేత్ క్రమాత్ తావద్వై శివ సాన్నిధ్యం తస్మిన్ దేహేన సంశయః. దేవీలింగం భవేద్ రూపం శివభక్త స్త్రియాస్తథా. యావన్ మంత్రం జపే దేవ్యాస్ తావత్ సాన్నిధ్యమస్తి హి. శివం సంపూజయే భీమాన్ స్వయం వై శబ్దరూప భాక్ స్వయం చైవ శివో భూత్వా పరాం శక్తిం ప్రపూజయేత్. శక్తిం వేరం చ లింగం చ హ్యాలేఖ్యా మాయయాం యజేత్. శివలింగం శివం మత్వా స్వాత్మానం శక్తిరూపకం శక్తిలింగం చ దేవీం చ మత్వా స్వం శివరూపకం శివలింగం నాదరూపం బిందురూపం చ శక్తికం. ఉపప్రధాన భావేన అన్యోన్యాసక్తలింగకం పూజయే చ శివం శక్తిం స శివో మూలభావనాత్. శివభక్తాన్ శివమంత్ర రూపకాన్ శివరూపకాన్ షోడశైరుపచారైశ్చ పూజయేద్ ఇష్టమాప్నుయాత్. ఏన శుశ్రూషనాదీ చ శివభక్తస్య లింగినః ఆనందం జనయేద్ విద్వాన్ శివః ప్రీతతరో భవేత్. శివభక్తాన్ స పత్నీకాన్ పత్న్యా సహ సదైవ తత్ పూజయేద్ భోజనాద్యైశ్చ పంచ వా దశ వా శతం ధనే దేహే చ మంత్రే చ భావనాయాం అవంచకః. శివశక్తిస్వరూపేణ న పునర్జాయతే భువి దాభేరథో బ్రహ్మభాగం ఆకచ్చం విష్ణుభాగకం ముఖం లింగమితి ప్రోక్తం శివభక్తశరీరికం. మృతాన్ దాహాదియుక్తాన్ వా దాహాదిరహితాన్ మృతాన్ ఉద్దిశ్య పూజయేద్ ఆదిపితరం శివమేవ హి. పూజాం కృత్వాది మాతుశ్చ శివభక్తాంశ్చ పూజయేద్. పితృలోకం సమాసాద్య క్రమాన్ముక్తో భవేన్మృతః. క్రియాయుక్తదశభ్యశ్చ క్రియాయుక్తదశభ్యశ్చ తపోయుక్తో విధిష్యతే. తపోయుక్తశతేభ్యశ్చ జపయుక్తో విధిష్యతే. జపయుక్తసహస్రేభ్యః శివజ్ఞానీ విధిష్యతే. శివజ్ఞానిషు లక్షేషు ధ్యానయుక్తో విధిష్యతే. ధ్యానయుక్తేషు కోటిభ్యః సమాధిస్థో విధిష్యతే. ఉత్తరోత్తరవైశిష్ట్యాత్ పూజాయాముత్తరోత్తరం ఫలం వైశిష్ట్యరూపం చ ఫలం వైశిష్ట్యరూపం చ దుర్విజ్ఞేయం మనీషిభిః. తస్మాద్వై శివభక్తస్య మహాత్యం వేతికో నరః. శివశక్త్యో పూజనం చ శివభక్తస్య పూజనం కురుతే యో నరో భక్త్యా స శివ శివ మేధతే య ఇమం భటతేధ్యాయం. అథర్వద్వేద సమ్మతం శివజ్ఞానీ భవేదిప్రహ శివేన సహ మోదతే. శ్రావయే శివభక్తాంశ్చ విశేషజ్ఞో మునీశ్వరాః. శివప్రసాద సిద్ధి స్యాత్ శివస్య కృపయా బుధాః. ఇది శ్రీ శివమహాపురాణే ప్రథమాయాం విద్యేశ్వర సంహితాయాం సప్తదశోధ్యాయః. ఓం. ఇది వరలియో வித்யேஸ்வர சம்ஹிதையில் 17வது அத்தியாயம் பூர்த்தி பண்ணியிருக்கு. அடுத்து 18வது அத்தியாயம். ஓம்.